विश्वबन्धुत्वमुद्घोषयत् पावनम् विश्वमेकम् कुटुम्बम् समालोकयत्। नमो नमः प्रियाः श्रोतारः, सर्वादौ दीपोत्सव शृङ्खलायाः विशेषतः भ्रातृद्वितीयपर्वणः अशेषाभिः शुभकामनाभिः सह अभिवादनम्। संस्कृत साप्ताहिकी कार्यक्रमस्य नूतनम् अङ्कम् आदाय समुपस्थिता अहम् कार्यक्रम प्रस्तोत्री डॉक्टर साधना शर्मा। प्रियाः श्रोतारः, जीवने नैतिक शिक्षा महत्वपूर्णा भवति। विदुरनीतेः श्लोकम् श्रावयति अस्माकम् सहयोगिनी निधि तिवारी।
दिवसे नैव तत्कुर्यात् येन रात्रौ सुखं वसेत्, यावज्जीवं च तत्कुर्यात् येन प्रीत्य सुखं वसेत्। अर्थात दिन भर ऐसा काम करो जिससे रात में चैन की नींद आ सके।
कलयुग केवल नाम अधारा, सुमिर सुमिर नर उतर ही पारा। तर्हि इदानीं प्रसंगांशे रामस्य स्तुतिं गायति अस्माकं सहयोगिनी रिंकू जोशी।
पंजात पत्रायतलोचनाय कर्णावतम सोज्वल कुंडलाय कारुण्य पात्राय सुवंशजाय नमोस्तु रामाय सलक्ष्मणाय। विद्युन्निभाम्बोध सुविग्रहाय विद्याधरै संस्तुत सद्गुणाय वीरावताराय विदोधिहन्त्रे नमोस्तु रामाय सलक्ष्मणाय। संसक्त दिव्यायुध कार्मुकाय समुद्र गर्वापहरायुधाय सुग्रीव मित्राय सुरारिहन्ते नमोस्तु रामाय सलक्ष्मणाय।
श्री रामस्य रमणीया स्तुतिः। जागरूकाः श्रोतारः, विश्वस्य वृत्तान्तं श्रावयति अस्माकं सहयोगिनी कामना झाः।
प्रधानमंत्री नरेंद्र मोदी स्पेन देशस्य च प्रधानमंत्री पेड्रो सांचेज इत्येषः गुजरातस्य वडोदरायां सी 95-200 इत्याख्यस्य विमानस्य विनिर्माण सौविध्ययस्य उद्घाटनं कृतवन्तौ। प्रधानमंत्री श्री मोदी गुजरातस्य अमरेली स्थाने भूयो अपि 5,000 कोटि रूप्यकाणां परियोजनानां आधारशिलाम् अपि स्थापितवान्। केंद्रीय गृहमंत्री अमित शाह नवदिल्लीयां मेजर ध्यानचंद क्रीडांगणे रन फॉर यूनिटी इत्येतां धावन क्रीडां हरित ध्वजं प्रदर्शितवान्। संपूर्णे देशे दीपावली पर्वणः उत्साहस्य च तरंगेण आमान्यते। उत्तर प्रदेशे अयोध्यायां दीपावल्याः पूर्वसंध्यायां भव्यः दीपोत्सवः आयोजिताः।
साप्ताहिकी वार्ता श्रुता अस्माभिः। ज्ञान विज्ञान पिपासवः अस्माकं श्रोतारः, ज्ञान विज्ञान अंशे संवादाय समुपस्थितोस्ति वचो युक्ति विशेषज्ञः डॉक्टर उमा महेश्वर एन विद्वान अष्टावधानी। संवादं साधयति सहयोगिनी निधि झाः। शृणुमस्तावत्।
प्रियाः बान्धवाः, साक्षात्कार प्रसारणाय साधित संपर्काः विशिष्टाः जनाः सन्ति सुरभारती क्रांतिकारिणः डॉक्टर उमा माहेश्वर महाभागाः। एते आभारतं प्रवसन्तः अनेक विधेषु संस्कृत सारस्वत कार्येषु आत्मनं व्यापारयन्ति। भवताम् आकाशवाणी पक्षतः प्रणति पुरस्सरम् अहम् निधि झाः स्वागतं कुर्वे। आर्य संस्कृत जगति वाचो युक्तयः तथा नाद्रियन्ते यथा अन्यासु भाषासु आद्रियन्ते। आर्य भवद्भ्यः वाचो युक्तिः इति विषये शोधकार्यमपि आचरितम्। तर्हि कृपया अस्मान् श्रोतृगणान् वाचोयुक्तिः विषये अवबोधयन्तु, यत् का नाम वाचोयुक्तिः।
नमो नमः निधिवर्ये, आकाशवाण्याः देहलीकेन्द्रे वाचोयुक्तीनां चिन्तनानि प्रसारयितुम् अवकाशः कल्पितः इति अत्यन्तं धन्योऽस्मि। एवं वाचोयुक्तिः नाम का इति जिज्ञासा सर्वत्राप्यस्ति, किञ्चिदिव इदानीं परिचितपूर्वः अयं शब्दः। वाचोयुक्तिः इत्यत्र आदौ शब्दमर्यादया परिचिन्त्यमाने वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु इत्यनेन वार्तिकेन वाचोयुक्तिः, दिशो दण्डः, पश्यतो हरः इति त्रीणि पदानि निष्पद्यन्ते। तत्र वाचोयुक्तिः इति शब्दस्य अर्थमर्यादया कः शब्दः इति प्रश्ने कृते सति, अयं शब्दः बहुधा प्राचीनवाङ्मये प्रयुक्तः एव। अमरकोशे वाचोयुक्तिपटुर्वाग्मी वावदूकोति वक्तरि इत्यत्र वाचोयुक्तिपटुः इति प्रयोगः दृश्यते। एवमेव लटकमेलकप्रहसने विषमैव भवतां ढुण्डोळिग्रामवासिनां वाचोयुक्तिः इत्यत्र तत्रापि प्रयोगः दृश्यते। एवं भाष्येऽपि बहुधा एषैषा वाचोयुक्तिः इति प्रयोगः दृश्यते। एवं भूवादयो धातवः इत्यस्मिन् सूत्रे भाववचनो धातुः क्रियावचनो धातुः इति पक्षद्वयम् उपात्तं, तत्रापि वाचोयुक्तिः इति शब्दः अस्माभिः विलोक्यते कातर्हीयं वाचोयुक्तिः इत्यनेन प्रयोगेण। एवं वाचोयुक्तिः इति शब्दः बहुधा प्राचीनानां परिचितः एव, परन्तु सङ्कल्लय्य इदं सर्वं परिशील्य अस्माभिः निरूप्यते चेत् एवं कश्चन अर्थः अस्माभिः सम्प्राप्यते, विलक्षणार्थगर्भितपदम् अथवा तादृशार्थगर्भितवाक्यं, वाक्यगुच्छं वा वाक्यं वाचोयुक्तिः इति अस्माभिः वक्तुं शक्यते। तत्र अथवा बहुभिः वाक्यैः निर्वहणीयः प्रसङ्गः, सन्दर्भो वा केनचिदेकेन पदेन अथवा लघुवाक्येन निरूपितं चेत् तत्रापि वाचोयुक्तिशब्देन निर्वहणं शक्यम् अथवा निरूपयितुं शक्यम्। एवम् अर्थविशेषे कस्यचन शब्दस्य निवेशोऽपि वाचोयुक्तिशब्देन निरूपयितुं शक्यं, तथा वाचोयुक्तिः विज्ञातुं शक्यते। कानिचित् उदाहरणानि दृष्टानि चेत् रामबाणः, भगीरथप्रयत्नः, सुग्रीवाज्ञा, त्रिशङ्कुस्थितिः, भीष्मप्रतिज्ञा, उत्तरपौरुषम्, एवं बहुधा वाचोयुक्तयः विलसन्ति वाङ्मये। एवं कूपमण्डूकः, क्षतेक्षारम् इत्यादीनि वाचोयुक्तिपदानि अस्माभिः विलोक्यन्ते। तत्र किञ्चिदेव परिशीलितं चेत् यः लोकज्ञानशून्यः, इतरसम्पर्करहितः, केवलमेकस्मिन्नेव स्थाने भवति, जगत् यः न जानाति, तादृशः उच्यते कूपमण्डूकः इति। एवं क्षतेक्षारम् इत्यस्यापि तादृशमेव, इदानीमेव किञ्चित् कष्टमस्ति जीवने, पुनः कष्टान्तरं तत्र आपन्नं चेत् तेन अत्यन्तं दग्धाः भवन्ति जनाः। एवं क्षते व्रणे पुनः क्षारसेकेन तत् क्षतं पुनः पुनः व्रणित नाम अत्यन्तं ज्वलति, तत् नाम कष्टे कष्टान्तरस्य आपत्तिः, एतस्य उच्यते क्षतेक्षारम् इति। एवं वाचोयुक्तयः अत्यन्तं विलक्षणाः, प्रयोगस्वारस्यं वर्धयन्ति इति अस्माभिः ज्ञातुं शक्यते।
बहु समीचीनम्। आर्य, सम्प्रति मनसि जिज्ञासा वरिवर्ति यत् वाचोयुक्तयः आधिक्येन कुत्र उपलभ्यन्ते, किञ्च कुतः अपेक्षिताः?
एवम्, अत्युत्तमः प्रश्नः। तत्र वाचोयुक्तयः कुत्र उपलभ्यन्ते किञ्च किमर्थम् अपेक्षिताः इति, तत्र वाचोयुक्तयः कुत्र उपलभ्यन्ते इत्यस्य वस्तुतः वाचोयुक्तीनां निधिः नाम रामायणम्, अस्माकं संस्कृतवाङ्मयञ्च। वाङ्मये नानाग्रन्थेषु, नानास्थानेषु, नानादर्शनेषु आवाङ्मयं वाचोयुक्तयः प्रयुक्ताः विलोक्यन्ते। इदानीं रामायणे आदावेव पाणावामलकम् इति प्रयोगः, करतलामलकम् इति प्रयोगाः अस्माभिः दृश्यन्ते। पाणावामलकम् इति तत्र प्रयोगः नाम समग्ररामकथा रामायणरचनायाः प्राक् वाल्मीकिना करतलामलकी कृता आसीत्, नाम तथा अधिकारः सम्प्राप्तः आसीदिति उच्यते। एवं रामायणे दक्षिणो बाहुः इत्यपि वाचोयुक्तिः लक्ष्मणस्य वर्णनकाले दृश्यते। कर्पूरचरितभाणः इति कश्चन ग्रन्थः, तद्ग्रन्थे चषकचुम्बनमात्रपरः इति प्रयोगः दृश्यते। तन्नाम यस्तावत् बहिरेव रमते, अन्तःसत्त्वं न गृह्णाति, सः उच्यते चषकचुम्बः इति। एवं रुक्मिणीहरण इहा मृगे कोमे द्वितीयां जिह्वां दास्यति इति, राज्ञः पुरस्तात् एवं निवेदिते सति मम वचनं कः समर्थयते इति अभिप्राये सः प्रयोगः। एवं दूतवाक्ये चर्वितचर्वणमित्यर्थे पिष्टपेषणम् इति प्रयोगः दृश्यते। त्रिपुरदाहडिमे भस्मनिहुतं नाम सर्वं निष्प्रयोजकत्वेन जातम् इति भस्मनिहुतम् इति प्रयोगः दृश्यते. मृच्छकटिके श्वेदकाकीयः इति प्रयोगः विलोक्यते. तत्र यः विद्यमानम् अन्यथा गोपायति सः उच्यते श्वेतकाकीयः इति. एवं रामायणे एव सुन्दरकाण्डे मया रामकार्यार्थं प्लवमानस्य हनुमतः साह्यं नाचरितं चेत् जनाः किं चिन्तयेयुः, अहं तेषां दृष्ट्या सर्ववाच्यः भवेयम् इति. सर्ववाच्यः इति शब्दः अत्र वाचोयुक्तिरूपेण विलक्षणार्थगर्भितः. एवं वाचोयुक्तयः बहुत्र लभ्यन्ते, केवलम् इह दिङ्मात्रम् इह दर्शितम्. तत्र किमर्थम् अपेक्षिताः इति प्रश्नः कृतः. वस्तुतः संस्कृतसम्भाषणक्षेत्रं महता मानेन वर्धमानमस्ति. शोधक्षेत्रं, साहित्यक्षेत्रम्, एवं संस्कृतपत्रिकाक्षेत्रं स्यात्, यूट्यूब् इत्यादिषु चित्रनिर्माणक्षेत्रं स्यात्, सर्वात्मना वर्धमानमस्ति. अतः तत्र सर्वत्रापि स्वारस्येन प्रयोगाः करणीयाः चेत् वाचोयुक्तयः अनिवार्याः. अतः वाचोयुक्तयः अपेक्षिताः.
साधु आर्य, प्रभागस्यास्य अन्तिमे चरणे स्वरसाः काश्चन वाचोयुक्तिः इतोपि श्रावयन्तु.
एवं स्वरसाः वाचोयुक्तयः परसहस्रमानेन विद्यन्ते संस्कृतवाङ्मये. मातृभाषास्वपि वाचोयुक्तयः अत्यन्तं विलसन्ति. स्वरसाः बह्व्यस्सन्ति, काश्चन इह उदाह्रियन्ते. तत्र रावणेन अङ्गुल्या नसमो रामः इति कश्चन प्रयोगः क्रियते, सुन्दरी वाचोयुक्तिः. ये अत्यन्तं मन्दतया जीवन्ति, ये त्वरया कार्याणि न सम्पादयन्ति, ते शीतकशब्देन प्रयुज्यन्ते. ये अत्यन्तं त्वरया कार्याणि साधयन्ति, अत्यन्तम् उत्साहिनो भवन्ति, ते उष्णकशब्देन प्रयुज्यन्ते. एवमेव काकपेया नदी इत्यपि शब्दः अस्ति. तलस्पर्शी, पल्लवग्राही, क्षतेक्षारं, गोष्पदेहतः, गोष्पदायते, तृणादयन्ते, नायम्ये, पादरजसापि तुल्यः इति कालिदासस्य वाचोयुक्तिः. जङ्गाबलमिति वाचोयुक्तिः. मशकनाशं नष्टः, कदलीलावम् अलावीति इति स्यात्, गजभञ्जं बभञ्ज इति स्यात्, पिष्टपेशं पेषितः इति वाचोयुक्तिः, शयोत्थायं धावति इति वाचोयुक्तिः, वनमेकपदे गतः इति वाचोयुक्तिः. एवं बह्व्यः वाचोयुक्तयः आवाङ्मयं विभूषिताः विलोक्यन्ते. तत्र शयोत्थायं धावति इति अत्यन्तं त्वरया प्रवर्तते इत्यर्थे णमुल् प्रत्यये विद्यमाना वाचोयुक्तिः. गोष्पदेहतः इति कश्चन प्रयोगः अस्ति. समग्रं सागरं सः लङ्घितवान्, अन्ते गोष्पदेहतः खलु इति सीता प्रयुङ्क्ते. नाम मायाशिरः रामलक्ष्मणयोः दर्श्यते. तत्काले एवं प्रयोगः सीतया क्रियते, अन्तिमक्षणे सः गतः खलु इति. नाम मायाशिरसि अभ्युपगत्य सः प्रयुङ्क्ते, परन्तु तथा अन्ततो गत्वा न भवति. एवं वनमेकपदे गतः इति प्रयोगस्तु अत्यन्तं रुचिरः. नाम अविचार्य अवितर्क्यैव गतः खलु इति रावणेन प्रयुज्यमाना सा वाचोयुक्तिः. एवम् अभित्तिचित्रायितः इति कौमुद्यां कश्चन प्रयोगः अस्ति. नाम आधारं विना पूर्वपक्षं यः उपस्थापयति तदर्थे सः प्रयोगः अस्ति. एवम् अत्यन्तं विलक्षणाः बह्व्यः वाचोयुक्तयः शास्त्रे, दर्शने, वाङ्मये, काव्ये उपलभ्यन्ते, विशेषतः रूपकसाहित्ये लभ्यन्ते. एवम् अत्र कश्चन वाचोयुक्तिचिन्तनप्रवर्तनाय अवकाशः कल्पितः, तेन अत्यन्तं धन्योऽस्मि. नमो नमः.
आचार्येभ्यः धन्यतावचनमाविष्क्रियते सप्रश्रयम्. भवतां वचांसि किमप्यभिनवं संस्कृतजगति साधयितुं सत्प्रेरयति सफले तयेमिति. धन्यवादाः.
नूनं संस्कृतस्य विविध ज्ञानेन आप्लुताः वयम्. इदानीं संस्कृतजगतः समस्ताः वार्ताः श्रावयति अस्माकं सहयोगिनी डॉक्टर सुषमा कुमारी.
दर्भंगा शास्त्रार्थ सभैका अद्भुतस्य संगमे विद्यार्थिनः स्वविद्वत्तायाः अनुपमं संगमं प्रदर्शितवन्तः. अत्र स्नातकोत्तर सभागारे बुधवासरे आयोजिता शास्त्र संवर्धिनी परिषत् शास्त्रार्थ सभा संस्कृतस्य गौरवमय परम्परां नवमिते आयामे प्रतिष्ठितवती. संयुक्त राष्ट्र स्थापना दिवसावसरे कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालयस्य पीजी इति स्नातकोत्तर साहित्य विभागस्य प्राध्यापकः डॉक्टर संतोष कुमार पासवानः जम्बूद्वीप पद्मश्री सम्मानेन सम्मानितवान्. नवदिल्ल्यां श्री लाल बहादुर संस्कृत विश्वविद्यालये पंजीकरणं विहितं. अत्र बैंकेषु खादोद्घाटन प्रक्रिया प्रारब्धा जाता. समस्त पदाधिकारिणः स्वीय प्रपत्राणि पूरयित्वा स्व प्रमाणितमपि कृत्वा अत्र उपलब्धं कार्ययुः. ನವದೆಹಲಿಸ್ಥ ಶ್ರೀ ಲಾಲ್ ಬಹದ್ದೂರ್ ಶಾಸ್ತ್ರಿ ರಾಷ್ಟ್ರೀಯ ಸಂಸ್ಕೃತ ವಿಶ್ವವಿದ್ಯಾಲಯ ಮಾಲವೀಯ ಮಿಷನ್ ಅಧ್ಯಾಪಕ ಪ್ರಶಿಕ್ಷಣ ಕೇಂದ್ರ ಮಾಸೀಯ ಆವಾಸೀಯ ಅನಿವಾರ್ಯ ಪ್ರಶಿಕ್ಷಣ ನವೆಂಬರ್ ಪಂಚಮ ತಾರೀಕಾತಃ ಪ್ರಾರಬ್ಧ. ಕಾಮೇಶ್ವರ ಸಿಂಗ್ ದರ್ಭಂಗಾ ಸಂಸ್ಕೃತ ವಿಶ್ವವಿದ್ಯಾಲಯ ದರ್ಭಂಗಾಯಾಂ ಬಹುಷು NSS ಏಕಾಂಶೀಷು ದರ್ಭಂಗಾ ಜನಪದ ಅಂತರ್ಗತೇಷು ಭಾರತ ಸರ್ವಕಾರ ಯುವ ಕಾರ್ಯಕ್ರಮ ಅಂತರ್ಗತೇಷು ಖೇಲ ಮಂತ್ರಾಲಯ ನಿರ್ದೇಶಾನುಸಾರಂ ಯೇ ದೀವಾಲಿ ಮಾಯಿ ಭಾರತ್ ವಾಲಿ ಇತಿ ವಿಷಯಾಂತರ್ಗತಂ ಆಪಣೇಷು ಸ್ವಚ್ಛತಾ ಯಾತಾಯಾತ್ ನಿಯಂತ್ರಣಾಧಾರಿತ ವಿಭಿನ್ನ ಸ್ಥಳೇಷು ವಿಭಿನ್ನ ಕಾರ್ಯಕ್ರಮಾಃ ಸಮಾಯೋಜಿತಾಃ.
ಏತಾದೃಶಿ ವಾರ್ತಾ ಪ್ರಸರೇತ್ ವಿಶ್ವಸ್ಮಿನ್ ಇತಿ ಕಾಮಯೇ. ಇದಾನೀಂ ಅಂಶಃ ಬಾಲಾನಾಂ ಕೃತೆ. ತರ್ಹಿ ಈಸಪ್ ಕಥಾಂ ಶ್ರಾವಯತಿ ಅಸ್ಮಾಕಂ ಸಹಯೋಗಿ ಸುರೇಶ ಚಂದ್ರ ಶರ್ಮಾ.
ಬಾಲಾಃ, ಅದ್ಯ ಅಹಂ ಏಕಾಂ ರೋಚಪೂರ್ಣಾಂ ಶಿಕ್ಷಾಪ್ರದಾಂ ಚ ಕಥಾಮೇಕಾಂ ಶ್ರಾವಯಾಮಿ. ಬಕಸ್ಯ ಶಿಗಾಲಸ್ಯ ಚ ಮಿತ್ರತಾ ಆಸೀತ್. ಏಕದಾ ಶಿಗಾಲಃ ಬಕಂ ಭೋಜನಾರ್ಥಂ ಸ್ವಗೃಹಂ ಆಹ್ವಯತಿ. ಶಿಗಾಲಃ ಸ್ಥಾಲಿಕಾಯಾಂ ಪಾಯಸಂ ಪರಿವೇಷಯತಿ. ಬಕಸ್ಯ ಚಕ್ಷುಃ ದೀರ್ಘ ಆಸೀತ್. ಸ್ಥಾಲಿಕಾಯಾಂ ಪರಿವೇಷಿತಂ ಪಾಯಸಂ ಬಕಃ ಖಾದಿತುಂ ನ ಶಕ್ನೋತಿ. ಶಿಗಾಲಃ ತಸ್ಯ ಉಪಹಾಸಂ ಕರೋತಿ. ಪುನಃ ಕದಾಚಿತ್ ಬಕಃ ಶಿಗಾಲಂ ಭೋಜನಾರ್ಥಂ ಸ್ವಗೃಹಂ ಆಹ್ವಯತಿ. ತದಾ ಸಹ ಗಲಂತಿಕಾಯಾಂ ಪಾಯಸಂ ಪರಿವೇಷಯತಿ. ಗಲಂತಿಕಾಯಾಂ ಪರಿವೇಷಿತಂ ಪಾಯಸಂ ಶಿಗಾಲಃ ಖಾದಿತುಂ ನ ಶಕ್ನೋತಿ. ಬಕಃ ತಸ್ಯ ಉಪಹಾಸಂ ಕರೋತಿ. ಶಿಗಾಲಃ ಅವಗಚ್ಛತಿ ಮಮ ಪೂರ್ವಕೃತಸ್ಯ ಏತತ್ ಫಲಂ ಇತಿ. ಸಹ ಮಿತ್ರಸ್ಯ ಕ್ಷಮಾಂ ಪ್ರಾರ್ಥಯತೆ. ತಯೋಃ ಮೈತ್ರಿ ದೃಢಾ ಭವತಿ. ಬಾಲಾಃ, ಅಸ್ಯಾಃ ಕಥಾಯಾಃ ಸಾರಃ ವರ್ತತೆ ಶಠಂ ಪ್ರತಿ ಶಾಠ್ಯಂ. ನಮೋ ನಮಃ.
ಶ್ರುತಾ ಬಾಲಕಥಾ. ಶ್ರೋತಾರಃ ದೃಷ್ಟಂ ಖಲು ದೇಶ್ ಅಲಗ್ ವೇಷ್ ಅಲಗ್ ಅಲಗ್ ನ ಅಂತರ್ ಪ್ರಾಣ. ಇತ್ಥಂ ಅಸ್ತಿ ಅಸ್ಮಾಕಂ ಭಾರತಂ. ತರ್ಹಿ ಏಕ್ ಭಾರತ್ ಶ್ರೇಷ್ಠ ಭಾರತ್ ಇತ್ಯಸ್ಮಿನ್ ಅಂಶೇ ಸಂಸ್ಕೃತ ಹಿಂದಿ ಕನ್ನಡ ಭಾಷಾಂ ಭಾಷತೆ ಅಸ್ಮಾಕಂ ಸಹಯೋಗಿನಿ ಮುದಿತಾ ವೇತಾಲಃ.
ಪ್ರಥಮಂ ವಾಕ್ಯಮಸ್ತಿ ಸದ್ಯೈವ ಕಿಂ ಪರ್ವ ಆಮಾನಿತಂ. ಪಹಲಾ ವಾಕ್ಯ ಹೇ ಅಭಿ ಕೌನ್ ಸಾ ಪರ್ವ ಮನಾಯಾ ಗಯಾ ಹೇ. ಕನ್ನಡ ಮೇ ಈಗ ಯಾವ ಹಬ್ಬವನ್ನು ಆಚರಿಸಲಾಗುತ್ತದೆ. ದ್ವಿತೀಯಂ ವಾಕ್ಯಮಸ್ತಿ ಸದ್ಯೈವ ದೀಪಾವಳಿ ಪರ್ವ ಆಮಾನಿತಂ. ದೂಸರಾ ವಾಕ್ಯ ಹೇ ಅಭಿ ದೀಪಾವಳಿ ಪರ್ವ ಮನಾಯಾ ಗಯಾ ಹೇ. ಕನ್ನಡ ಮೇ ಈಗಷ್ಟೇ ದೀಪಾವಳಿ ಹಬ್ಬವನ್ನು ಆಚರಿಸಲಾಗಿದೆ. ತೃತೀಯಂ ವಾಕ್ಯಮಸ್ತಿ ದೀಪಾವಳ್ಯಾಂ ಜನಾಃ ಕಿಂ ಕುರ್ವಂತಿ. ತೀಸರಾ ವಾಕ್ಯ ಹೇ ದೀಪಾವಳಿ ಪರ್ ಲೋಗ್ ಕ್ಯಾ ಕರ್ತೆ ಹೇ. ಕನ್ನಡ ಮೇ ದೀಪಾವಳಿಯ ದಿವಸ ಜನರು ಏನ ಮಾಡ್ತಾರೆ. ಚತುರ್ಥಂ ವಾಕ್ಯಮಸ್ತಿ ದೀಪಾವಳ್ಯಾಂ ಜನಾಃ ಮಹಾಲಕ್ಷ್ಮ್ಯಾಃ ಪೂಜನಂ ಕುರ್ವಂತಿ. ಚೌಥಾ ವಾಕ್ಯ ಹೇ ದೀಪಾವಳಿ ಪರ್ ಲೋಗ್ ಮಹಾಲಕ್ಷ್ಮಿ ಕಿ ಪೂಜಾ ಕರ್ತೆ ಹೇ. ಕನ್ನಡ ಮೇ ದೀಪಾವಳಿಯ ದಿನ ಜನರು ಮಹಾಲಕ್ಷ್ಮಿ ಪೂಜೆ ಮಾಡ್ತಾರೆ. ಪಂಚಮಂ ವಾಕ್ಯಮಸ್ತಿ ಅಸ್ಮಿನ್ ದಿನೆ ಜನಾಃ ಪರಸ್ಪರಂ ಸುಖಪೂರ್ವಕಂ ಮಿಲಂತಿ. ಪಾಂಚವಾ ವಾಕ್ಯ ಹೇ ಇಸ್ ದಿನ ಲೋಗ್ ಏಕ್ ದೂಸರೆ ಸೆ ಸುಖಪೂರ್ವಕ ಮಿಲ್ತೆ ಹೇ. ಕನ್ನಡ ಮೇ ಆ ದಿನ ಜನರು ಪರಸ್ಪರ ಭೇಟಿ ಆಗುತ್ತಾರೆ. ಧನ್ಯವಾದಾಃ.
ಏಕ್ ಭಾರತ್ ಶ್ರೇಷ್ಠ ಭಾರತ್ ಅಂಶೇನ ಸಹ ಪುನರಪಿ ದೀಪೋತ್ಸವಸ್ಯ ಶುಭಕಾಮನಾಃ ಕಥಯಾಮಿ. ಪ್ರಿಯಾಃ ಶ್ರೋತಾರಃ ಸಮಾಗತಾ ಅಸ್ತಿ ಅವಸಾನ ವೇಳಾ. ಅಯಿ ಸುರತ್ ವರ್ಯಾಃ ಪ್ರಿಯಾಃ ಶ್ರೋತಾರಃ ಭವಂತಃ ಕಾರ್ಯಕ್ರಮಸ್ಯ ಸಂಬದ್ಧಾನ್ ಅನುಭವಾನ್ ಅಸ್ಮಭ್ಯಂ ಇಮೇಲ್ ಮಾಧ್ಯಮೇನ ಪ್ರೇಷಯಿತುಂ ಅರ್ಹಂತಿ. ಅಸ್ಮಾಕಂ ಇಮೇಲ್ ಸಂಕೇತಃ ವರ್ತತೆ nsd@gmail.com nsdsanskrit@gmail.com. ಆಗಾಮಿನಿ ಸಪ್ತಾಹೆ ಅಸ್ಮಿನ್ ಏವ ಸಮಯೇ ನೂತನಂ ಅಂಕಂ ಆದಾಯ ಪುನಃ ಉಪಸ್ಥಾಪಯಿಷ್ಯಾಮಃ. ಅಹಂ ಡಾಕ್ಟರ್ ಸಾಧನಾ ಶರ್ಮಾ ಸರ್ವೇಭ್ಯಃ ಸಾದರಂ ಅಭಿವಾದಯೇ. ಶುಭಂ ಮಂಗಲಂ.